यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः जातवेदो मुखात् मायी मिषताम् आच्छिनत्तिनः
यज्वभिरिति यज्वभिः विधिवत् इष्टवद्भिः यज्वातु विधिरेष्टवान् इत्यमरः सुययोर्ङ्वनिप् इति ङ्वनिप् प्रत्ययः विततेषु अध्वरेषु यज्ञेषु संभृतं दत्तं हव्यं हविः मायी मायावी विरिह्यादित्वात् इनिप् प्रत्ययः सः तारकः नः अस्माकं मिषतां पश्यतां पश्यत्सु सत्स्वित्यर्थः षष्ठी चानादरे इति षष्ठी जातवेदाः वह्निरेव मुखं तस्मात् जातवेदो मुखात् आच्छिनत्ति आक्षिप्य गृह्णातीत्यर्थः
उच्चैः उच्चैश्रवास्तेन हयरत्नमहारिच देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः
उच्चैरिति किञ्चेति चार्थः तेन तारकेण उच्चैः उन्नतः उच्चैश्रवाः नाम हयः रत्नम् इव हयरत्नम् अश्वश्रेष्ठः रत्नम् श्रेष्ठे मणावपि इति विश्वः अस्य शुभ्रत्वात् उत्प्रेक्षते देहबद्धम् बद्धदेहम् मूर्तिमदित्यर्थः आहिताग्न्यादित्वात् निष्ठायाः परनिपातः चिरकालार्जितम् इन्द्रस्य यशः इव अहारि अपहृतम्
तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः वीर्यवन्त्यौषधानीव विकारे सान्निपातिके
तस्मिन्निति क्रूरे घातुके नृशंसो घातुकः क्रूरः इत्यमरः तस्मिन् असुरे नः अस्माकं सर्वे उपायाः सन्निपातदोषत्रयस्य प्रकोपजे सान्निपातिके विकारे ज्वरादौ सन्निपाताच्च इति वक्तव्यात् ठक् वीर्यवन्ति सारवन्ति औषधानीव प्रतिहतक्रियाः विफलप्रयोगाः भवन्ति
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा हरिचक्रेण तेनास्य कंठे निष्कमिवार्पितम्
जयासेति किञ्चेति चार्थः नूनम् अनेन हरिचक्रेण वयं जेष्याम इति यत्र हरिचक्रे अस्माकं जयाशा विजयासंसा आसीदिति शेषः प्रतिघातेन प्रतिहत्या उत्थितार्चिषा उद्गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेन अस्य तारकस्य कण्ठे निष्कम् उरोभूषणम् अर्पितमिव इत्युत्प्रेक्षा स्वयमेव निष्कमिव स्थितमित्यर्थः तारकशिरश्छेदाय हरिणा चक्रम् त्यक्तम् तदपि नष्टशक्ति जातमिति भावः साष्टे शते सुवर्णानाम् हेम्नि उरोभूषणे पले दीनारेऽपि च निष्कोस्त्री इत्यमरः
तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु अभ्यस्यन्ति तटाघातम् निर्जितैरावतागजाः
तदीया इति अद्य सम्प्रति निर्जितः ऐरावतः यैस्ते तथोक्ताः त तस्य तारकस्य इमे तदीयाः गजाः पुष्कराश्च आवर्तकाश्च नामादयः येषां तेषु तोयदेषु मेघेषु तटाघातं वप्रक्रीडाम् अभ्यस्यन्ति
तदिच्छामो विभो स्रष्टुं सेनान्यं तस्य शान्तये कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः
तदिति तत् तस्मात् कारणात् हे विभो स्वामिन् मोक्तुं भवं त्यक्तुं इच्छवः मुमुक्षवः विरक्ताः भवस्य संसारस्य शान्तये निवृत्तये कर्मैव बन्धः तं छिनत्तीति कर्मबन्धच्छित्तं धर्मम् इव आत्मज्ञानहेतुभूतमिति शेषः तमेव विदित्वा अतिमृत्युमेति इति ज्ञानादेव मुक्तिः तस्य तारकस्य शान्तये नाशाय सेनां नयतीति सेनानीः चमूपतिः सत्सूद्विष इत्यादिना क्विप् तं सेनान्यं कञ्चित् स्रष्टुमिच्छामः वयमिति शेषः
गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् प्रत्यानेष्यति शत्रुभ्यः बन्दीमिव जयश्रियम्
गोप्तारमिति सुरसैन्यानां देवतासेनानां गोप्तारं रक्षितारं यं सेनान्यं पुरस्कृत्य पुरोधाय पुरोव्ययम् इति गतित्वात् नमस्पुरसोर्गत्योः इति सकारः गां पृथ्वीं त्रायन्त इति गोत्राः तान् भिनत्तीति गोत्रभित् इन्द्रः जयश्रियं बन्दीमिव बन्दीकृतां स्त्रियमिव शत्रुभ्यः सकाशात् प्रत्यानेष्यति प्रत्याहरिष्यति तं स्रष्टुमिति पूर्वेण सम्बन्धः
वचस्यवसिते तस्मिन् ससर्जगिरमात्मभूः गर्जितानन्तरां वृष्टिं सौभाग्येन जिगायसा
वचसीति तस्मिन् बार्हस्पत्ये वचसि अवसिते परिसमाप्ते सति आत्मभूः ब्रह्मा गिरं वाचं ससर्ज जगादेत्यर्थः सा गीः सौभाग्येन मनोहरत्वेन हृद्भगसिन्ध्वन्ते पूर्वपदस्य च इत्युभयपदवृद्धिः गर्जितात् गर्जितस्य वा अनन्तरां प्रवृत्तां वृष्टिं जिगाय जितवती गर्जितपरत्वात् वृष्टेरिव तद्विज्ञापनफलत्वात् गिरः सुभगत्वमिति भावः
सम्पत्स्यते वः कामोऽयम् कालः कश्चित् प्रतीक्ष्यताम् न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना
सम्पत्स्यत इति अयम् वः युष्माकम् कामः मनोरथः सेनानीरूपः सम्पत्स्यते सेत्स्यति कश्चित् कियानपि कालः प्रतीक्ष्यताम् तु किन्तु तस्य सेनान्यः सिद्धौ विषये आत्मना स्वयं सर्गः सृष्टिरेव व्यापारः तं न यास्यामि नाहं स्रक्ष्यामीत्यर्थः
इतः स दैत्यः प्राप्तश्रीः नेत एवार्हति क्षयम् विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्
इत इति इतः मत्तः एव प्राप्तश्रीः लब्धोदयः सः दैत्यः तारकासुरः इतः मत्तः एव क्षयं नाशं नार्हति तथा हि अन्यो वृक्षस्तावत् आस्ताम् विषस्य वृक्षः विषवृक्षोऽपि संवर्ध्य कुतश्चित् कारणात् सम्यक् वर्धयित्वा स्वयं छेत्तुम् असाम्प्रतम् अनर्हः असाम्प्रतमित्यनेन निपातेन अभिहितत्वात् वृक्ष इति द्वितीयान्तो न भवति अनभिहिते कर्मणि द्वितीयाभिधानात् यथाह वामनः निपातेनापि अभिहिते कर्मणि न विभक्तिः परिगणनस्य प्रायिकत्वात् इति
वृतं तेनेदमेव प्राक् मया चास्मै प्रतिश्रुतम् वरेण शमितं लोकान् अलं दग्धुं हि तत्तपः
वृत्तमिति प्राक् पूर्वं तेन असुरेण इदमेव देवैः अवध्यत्वम् एव वृतं प्रार्थितम् मया च अस्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् प्रत्याङ्घ्यां श्रुवः पूर्वस्य कर्ता इति सम्प्रदानत्वात् चतुर्थी कर्तव्यं चैतत् इत्याह लोकान् दग्धुम् अलं शक्तम् पर्याप्तिवचने श्वलमर्थेषु इति तुमुन्प्रत्ययः तस्य तपः तत्तपः वरेण वरदानेन शमितं हि मयेति शेषः
संयुगे साम्युगीनं तम् उद्यन्तं प्रसहेतकः अंशाद्रते निषिक्तस्य नीललोहितरेतसः
संयुग इति संयुगे युद्धे उद्यतं व्याप्रियमाणं संयुगे साधुं साम्युगीनं प्रतिजनादिभ्यः खञ् इति खञ् प्रत्ययः तं तारकं निषिक्तस्य क्वचित् क्षेत्रे क्षरितस्य नीलः कण्ठे लोहितश्च केशेष्विति नीललोहितः इति पुराणम् इति स्वामी तस्य नीललोहितस्य धूर्जटेः रेतसः शुक्रस्य अंशाद्रुते अंशं विना अन्यः कः प्रसहेत अभिभवेत् प्रसहनम् अभिभवः इति वृत्तिकारः
स हि देवः परं ज्योतिः तमः पारे व्यवस्थितम् परिच्छिन्न प्रभावर्धिः न मया न च विष्णुना
स इति स देवः नीललोहितः तमसः पारे परतः व्यवस्थितं तमोगुणातीतं परं ज्योतिः परमात्मा हि अत एव मया परिच्छिन्नप्रभावर्धिः अवगाढमहिमातिशयः न भवति तथा विष्णुना च न अतः तस्य असाध्यं नास्तीत्यर्थः सम्प्रति तदंशोत्पत्तौ उपायं दर्शयति
उमारूपेण ते यूयम् संयमस्तिमितं मनः शम्भोर्यतध्वमाक्रष्टुम् अयस्कान्तेन लोहवत्
उमेति ते कार्यार्थिनः यूयम् संयमस्तिमितं समाधिनिश्चलम् शम्भोः मनः उमारूपेण उमासौन्दर्येण रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः ग्रन्थावृत्तौ नाटकादौ आकारश्लोकयोरपि इति विश्वः अयस्कान्तेन मणिविशेषेण कस्कादिषु च इति सकारः లోహవత్ అయోధాతుం ఇవ తేన తుల్యం క్రియాచేద్వతిహి ఇతి వతి ప్రత్యయో మృగ్యః ఆక్రష్టుం ఆహర్తుం యతద్వం ఉద్యుక్తా భవత
ఉభే వక్షమే వోఢుం ఉభయోర్ బీజమాహితం సావా శంభో తదీయా వా మూర్తిర్జలమయీ మమ
ఉభే ఇతి ఉభయోః శంభోః మమ చ ఆహితం నిషిక్తం బీజం తేజః ఓఢుం సోఢుం సావా ఉమా శంభోః అష్టమూర్తేః తస్చ ఇయం తదీయా జలమయీ మూర్తిర్వా మమ ఉభే ఏవ క్షమే న తృతీయేత్యర్థః వా శబ్దో ద్వంద్వార్థే న తు అన్యార్థే ఏతదేవ ఉదాహృత్య ఇత్థమేవ వ్యాఖ్యాతం గణవ్యాఖ్యానే అత్ర దీపకాలంకారః ప్రాకరణికయోః ఉమామహేశ్వర ప్రాకరణికయోః బ్రహ్మజలమూర్త్యోశ్చ ఔపమ్యస్య గమ్యత్వాత్ యథాః భోజరాజః ప్రస్తుతానాం అప్రస్తుతానాం చ ఔపమ్యస్య గమ్యత్వే దీపకం ఇతి నచేజం తుల్యయోగిత తస్యాః కేవల ప్రస్తుత విషయత్వేన కేవలా ప్రస్తుత విషయత్వేన చ ఉత్థానాత్ ఇతి
తస్యాత్మా శితికంఠస్య సైనాపత్యముపేత్యవః మోక్ష్యతే సురవందీనాం వేణీర్వీర్యవిభూతిభిః
తస్యేతి తస్య శితికంఠస్య అష్టమూర్తేః ఆత్మా పుత్ర ఇత్యర్థః ఆత్మా వై పుత్రనామాసి ఇతి శ్రుతేః వః యుష్మాకం సేనాపతేః భావః సైనాపత్యం పత్యంత పురోహితాదిభ్యో యక్ ఇతి యక్ ప్రత్యయః ఉపేత్య ప్రాప్య వీర్యవిభూతిభిః శౌర్య సంపత్తిభిః సురబందీనాం వేణీః మోక్ష్యతే విశ్రంసయిష్యతి తారకాసురం హనిష్యతీతి భావః
ఇతి వ్యాహృత్య విబుధాన్ విశ్వయోనిస్తిరో దధే మనస్యాహిత కర్తవ్యాః తేపి దేవా దివం యయుః
ఇతి విశ్వస్య యోనిః కారణం యోనిః స్త్రీణాం భగస్థానే కారణే తాంత్రికే పణే ఇతి వైజయంతి విబుధాన్ సురాన్ ఇతి వ్యాహృత్య అభిధాయ తిరోదధే అంతర్హితవాన్ తే దేవా అపి మనసి ఆహితం కర్తవ్యం యైస్తే తథోక్తాః సంతః దివం స్వర్గం యయుః ప్రాపుః
తత్ర నిశ్చిత్య కందర్పం అగమత్ పాక శాసనః మనసా కార్యసంసిద్ధౌ త్వరా ద్విగుణరంహసా
తత్రేతి పాకో నామ కశ్చిదసురః తస్య శాసనః ఇంద్రః తత్ర హరచిత్తాకర్షణకృత్యే కందర్పం నిశ్చిత్య సాధకత్వేనేతి శేషః కార్యసంసిద్ధౌ త్వరయా ఔత్సుక్యేన ద్వౌ గుణౌ యస్య తద్ ద్విగుణం ద్విరావృత్తం రంహో వేగో యస్య తేన తథోక్తేన గుణస్తు వృత్తిశబ్దాది జ్యేంద్రియ అముఖ్యతంతుషు ఇతి వైజయంతి మనసా అగమత్ సస్మారేత్యర్థః గమేర్లుంగ్ లృదిత్వాత్ శ్లేహే అనాదేశః
అథ సలలితయోషిద్భ్రూలతా చారుశృంగం रतिवलय पदांके चापमासज्य कंठे सहचर मधुहस्तन्यस्तचूतांकुरास्त्रः शतमख मुपतस्थे प्राञ्जलिः पुष्पधन्वा।
अथेति अथ स्मरणानन्तरं सः स्मृतः इत्यर्थः। पुष्पं धनुः यस्य सः पुष्पधन्वा कामः वा संज्ञायाम् इत्यनङ् ललितं त्रिषु सुन्दरम् इत्यमरः ललितायाः सुन्दर्याः योषितः भ्रुवौ लते इव चारुणी शृङ्गे कोटी यस्य तत्तथोक्तम् चापम् रतिस्मरप्रिया इत्यमरः तस्याः वलयपदानि कङ्कणस्थानानि अङ्कः चिह्नम् यस्य सः तथोक्ते कंठे आसज्य लगयित्वा चापकंठविशेषणाभ्याम् शृङ्गारैकनिधेः त्रिभुवनैकवीरस्य शृङ्गारवीरोपकरणेषु तुल्यरसत्वम् व्यज्यते। सहचरस्य सख्युः मधोः वसन्तस्य हस्ते न्यस्तम् चूताङ्कुरम् एव अस्त्रम् यस्य सः तथोक्तः प्राञ्जलिः कृताञ्जलिस्सन् शतमखम् इन्द्रम् उपतस्थे सङ्गतवान् सङ्गतिकरणार्थात् आत्मनेपदम्। अत्र स्वभावोक्तिः स्वभावोक्तिरसौचारु यथावद्वस्तुवर्णनम् इति मालिनीवृत्तमेतत् ननमययुतेयम् मालिनी भोगिलोकैः इति लक्षणात् इति श्रीमन्महामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितया सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये ब्रह्मसाक्षात्कारो नाम द्वितीयः सर्गः।